अष्टाध्यायी सूत्रपाठः चतुर्थाध्याये तृतीयः पादः मयड्वैतयोर् भाषायाम भक्ष्याच्छादनयोः मयड्वैतयोर् भाषायाम भक्ष्याच्छादनयोः मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः नित्यं वृद्धशरादिभ्यः मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे गोश्च पुरीषे
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे गोश्च पुरीषे मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे गोश्च पुरीषे
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च पिष्टाच्च
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च पिष्टाच्च मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् संज्ञायां कन्
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् संज्ञायां कन् मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् व्रीहेः पुरोडाशे व्रीहेः पुरोडाशे मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् व्रीहेः पुरोडाशे असंज्ञायां तिलयवाभ्याम् असंज्ञायां तिलयवाभ्याम्
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन्
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् व्रीहेः पुरोडाशे असंज्ञायां तिलयवाभ्याम् द्व्यचस्छन्दसि द्व्यचस्छन्दसि
मयड्वैतयोर्भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च
मयद्वैतयोर् भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् व्रीहेः पुरोडाशे असंज्ञायां तिलयवाभ्यां द्व्यचश्छन्दसि नोत्वद्वर्ध्र बिल्वात् नोत्वद्वर्ध्र बिल्वात्
मयद्वैतयोर् भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः
मयड्वैतयोर् भाषायाम भक्ष्याच्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच्च संज्ञायां कन् व्रीहेः पुरोडाशे असंज्ञायां तिलयवाभ्यां द्व्यचश्छन्दसि नोत्वध्वर्द्र बिल्वात् तालादिभ्योण् तालादिभ्योण् युष्मदस्मदूरण्यतरस्यां खञ्च तस्मिन्नणि च युष्माकास्माकौ तव कममकावेकवचने अर्थात् यत् परावरागमोत्तम पूर्वाच्च दिक्पूर्वपदाख्यञ्च ग्रामजनपदैकदेशादङ्कयो मध्याह्नः ससाम्प्रतिके द्वीपादनुसमुद्रम्यै कालाख्यै श्राद्धे शरदः विभाषारोगातपयोः निशापदोषाभ्यां च स्वसस्तुच्च सन्दिवेलाद्रितु नक्षत्रेभ्योन् प्राविशहेण्यः वर्षाभ्यश्च छन्दसि ठञ् वसन्ताच्च हेमन्ताच्च सर्वत्राञ्च तलोपश्च सायं चिरं प्राणे प्रग्रे व्ययेभ्यश्च्यौ लौतुश्च विभाषा पूर्वाणा पराणाभ्यां तत्र जातः प्रावृषस्थ संज्ञायां शरदो भुञ् पूर्वाह्णा पराह्णार्द्रा मूलप्रदोषावस्करागुन् पतः पन्तज अमावास्या यावा अच सिन्धोपकराभ्यां कन् अनयौ च स्रविष्ठा फल्गुन्यनुराधा स्वातिदिश्य पुनर्वसु हस्त विशाखा शाला बहुलाल्लुक् स्थानान्तकोशालकरशालाश्च वत्सशालाभिजितश्वयो क्षतविषजो वा नक्षत्रेभ्यो बहुलम् कृतलब्धक्रीतकुशलाः प्रायभवः उपजानूपकर्णोपनिवेष्ट सम्भूते कोशाद्वयम् कालात् साधु पुष्प्यपच्यमानेषु उक्ते च आश्वयोज्या वै ग्रीष्म वसन्तादन्यतरस्याम् देयमृणे कलाप्यश्वत्थयवभुसाद्वुन् ग्रीष्मावरसमाद्वै संवत्सराग्रहायणीभ्याम् कञ्च व्याहरति निगः तदस्य सोढम् तत्र भवः दिगादिभ्यो यत् शरीरावयवाच्च धृतिगुप्सि कलशिवस्यस्य हेर्भै ग्रीवाभ्योञ्च गम्भीरायिनः अव्ययी भवाच्च अन्तः पूर्वकाश्मै ग्रामात् पर्यनुपूर्वात् जिह्वामूलाङ्गुलेश्च अशब्दे यथावन्यतरस्याम् कर्णललाटात्कनलङ्कारे तस्य व्याख्यान इति स्वव्यक्तव्यमाह्नः दात्तार्थै क्रतु यज्ञेभ्यश्च अध्यायेष्वेव वर्षे पौरोडाश पुरोडाशात् छन्दसो यदणौ द्व्यग्रे ब्राह्मणात् प्रथमाध्वर पुरश्चरण नामाख्याताद्धत् अण्ड्रिगैनादिभ्यः तथा आगतः तदा यथानेभ्यः शुण्डिकादिभ्योन् विद्यायोनि सम्बन्धेभ्यो वै ऋतच्छञ् पितुर्यच्च गोत्रादन्तवत् हेतुमनुष्येभ्यो नेतरस्याम् रूप्यः मयच्च प्रभवति विदुरान्यः तद्गच्छति पतिदूतयोः अभिनिष्क्रामति द्वारम् अधिकृत्य कृते ग्रन्थे शिशुक्रन्दयमसव द्वन्द्वेन्द्र जननादिभ्यश्चः सोऽस्य निवासः अभिजनश्च आयुधजीविभ्यश्च पर्वते चण्डिकादिभ्यो न्यः सिन्धुतक्षशिलादिभ्यो नयौ तूदीशलातुरवर्मती कूचवाराढक्षण्डयकः भक्ति अच्युत्तादेशकालाढक् महाराजाढ्ठै वासुदेवार्जुनाभ्याम्बुन् गोत्रक्षत्रियाख्येभ्यो बहुलं वै जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने तेन प्रोक्तं तित्तिरिवरदन्तु खण्डिकोखाक्षण् कश्यपकौशिताभ्याम ऋषिभ्यां मुनिनिः कलापि वैशंपायनान्ते वासीभ्यश्च पुराणप्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि कटकरः सकलिनोभिनु पाराचर्यशिलालिभ्यां भिक्षुनटसूत्रयोः कर्मण्डकृशास्वादिनिः तेनैव सति तस्यैश्च पुरतो यच्च उपज्ञाते कृते ग्रन्थे संज्ञायां कुलालादिभ्यो वै शुत्राभ्रमरवटरपादपादैः तस्येदम् इरसात् यत् पत्रपूर्वादैः पत्राद्वर्युपरिषदश्च अलसिराट्ठ द्वन्द्वादून् वैरमैथुनिकयोः गोत्रचरणाद्वै सङ्गाङ्कलक्षणे स्वयं यामन् चन्दो गौप्तिकयाज्ञिकभवृतनकायिनः न दण्डमाणवान्ते वासिषु नैवतिकादिभ्यः तस्य विकारः अवयवे च प्राण्यसभिवृक्षेभ्यः निर्वादिभ्यः कोपदाच्च प्रपुजतुनोः सुखोरै अनुदात्तादेश्च पलाशादिभ्यो वा सम्याशायाम भक्ष्यात् साधनयोः नित्यं वृद्धशरादिभ्यः गोष्ठपुरीशे निष्ठा च संज्ञायां कन् व्रीहेः पुरोडासे असंज्ञायां तिलयवाभ्यां ज्वचश्चन्दसि गोत्वध्वर्ध्रबिल्वात् कालादिभ्यो जातरूपेभ्यः